त्रिदलं त्रिगुणाकारं त्रिनेत्रं च त्रियायुधं त्रिजन्म पापसंहारं एकबिल्वं शिवार्पणम् त्रिशाखै बिल्वपत्रैश्च अचित्रै कोमलै शुभै तव पूजां करिष्यामि एकबिल्वं शिवार्पणम् कोटिकन्या महादानम् तिलपर्वतकोटयः काञ्चनं शैलदानेन एकबिल्वं शिवार्पणम् काशीक्षेत्रनिवासं च कालभैरवदर्शनम् प्रयागे माधवं दृष्ट्वा एकबिल्वं शिवार्पणम् इन्दुवारे व्रतं स्थित्वा निराहारमहेश्वरा नक्तं होष्यामि देवेश एकबिल्वं शिवार्पणम् रामलिङ्गप्रतिष्ठा च वैवाहितकृतं तथा तटाकानि च सन्दारम् एकबिल्वं शिवार्पणम् अखण्डबिल्वपत्रं च आयुधं शिवपूजनम् कृतं नाम सहस्रेण एकबिल्वं शिवार्पणम् उमया सह देवेश नन्दिवाहनमेव च भस्मलेपन सर्वाङ्गम् एकबिल्वं शिवार्पणम् सारग्रामेषु विप्राणा तटागं दशकूपयो यज्ञकोटिसहस्रश्च एकबिल्वं शिवार्पणम् दण्डिकोटिसहस्रेषु अश्वमेधशतक्रतौ कोटिकन्या महादानम् एकबिल्वं शिवार्पणम् बिल्वानां दर्शनं पुण्यं स्पर्शनं पापनाशनम् अघोरपापसंहारम् एकबिल्वं शिवार्पणम् सहस्रवेदपाठेषु ब्रह्मस्थापनमुच्यते अनेकव्रतकोटीनाम् एकबिल्वं शिवार्पणम् अन्नदानसहस्रेषु सहस्रोपनयन्तता अनेकजन्मपापानि एकबिल्वं शिवार्पणम् बिल्वस्तोत्रमिदं पुण्यम् यः पठेत् शिवसन्निधौ शिवलोकमवाप्नोति एकबिल्वं शिवार्पणम्।